एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिः रामचन्द्र पौडेलः अजरबैजान देशस्य बाकु नगरे सम्पत्स्यमाने जलवायु परिवर्तन सम्बद्धस्य संयुक्त राष्ट्र संघीय संरचना महासन्धेः पक्षराष्ट्राणाम् 29 सम्मेलने सहभागी भवितुम् अद्य तत्र प्रतिष्ठते। अजरबैजान देशस्य राष्ट्रपतेः अलहम अलियव इत्यस्य निमन्त्रणायां सम्मेलनेऽस्मिन् सहभागी भवितुम् राष्ट्रपति पौडेलः उच्चस्तरीय नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विदधानः बाकुनगरं गच्छन्नस्ति। राष्ट्रपतेः पौडेलस्य अस्यैव कार्तिकस्य 27-28 च दिवसयोः सम्पत्स्यमानस्य उच्चस्तरीय सत्रस्य विश्वनेतृणां जलवायु कार्यशिखर सम्मेलने सम्बोधनस्य कार्यक्रमः निर्धारितोऽस्तीति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। सम्मेलनस्य क्रमे नेपालेन स्वस्य विषये विश्वस्य ध्यानाकर्षणं विधातुं कार्तिकस्य 28 दिवसे राष्ट्रपतेः पौडेलस्य नेतृत्वे पृथक् उच्चस्तरीय सत्रं सञ्चालयिष्यते। नेकपा एमाले दलीय सचिवालय उपवेशेन आसन्न स्थानीय स्तरस्य उपनिर्वाचने केन्द्रिताः भवितुम् दलस्य सर्वेऽपि निकायाः निर्दिष्टाः वर्तन्ते। ललितपुरस्य च्यासलवर्तिनी केन्द्रीय कार्यालये ह्य उपविष्टेन सचिवालयोपवेशेन दलस्य प्रदेश समितिभ्यः परामृष्टानि प्रत्याशिनां नामानि अनुमोद्य सम्पूर्ण सामर्थ्येन निर्वाचने परिचालिताः भवितुम् दलपंक्तिः निर्दिष्टास्तीति एमाले दलेन ज्ञापितमस्ति। स्थानीय स्तरस्य विभिन्नेषु 44 स्थानेषु आगामिनः मार्गशीर्ष मासस्य 16 दिवसे उपनिर्वाचनं सम्पत्स्यमानं वर्तते। एवमेव उपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः आसन्न चीन देश भ्रमणस्य पूर्वकार्यस्य सम्बन्धे विमृष्टम् राष्ट्रियहितं विचार्य परराष्ट्रनीतिं निर्धारयितुं सर्वकाराय परामृष्टम् चेति एमाले दलस्य उपमहासचिवः प्रदीप ग्यमाली उपवेशस्य पश्चात् संचारकर्मिणः अज्ञापयत्। एवमेव उपवेशेन सर्वकारस्य चतुर्णां मासानां कार्यकालस्य समीक्षया सह कोशी प्रदेशस्य निवर्तमानान्तर विषय मन्त्रिणः लीलावल्लभ अधिकारिणः दलस्य प्रदेश समित्या दलस्य सर्वदायित्वात् मोचनस्य निर्णयस्य अनुमोदनेन च सह अधिकारिणी आरोपितानां समेषाम् आरोपाणां वस्तुनिष्ठम् अनुसन्धानं कर्तुम् राज्यस्य सर्वान्नपि निकायान् अनुरोद्धुम् निर्णीतम् इति च उपमहासचिवः ग्यमाली अवोचत्। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह नेपालेन नगरीकरणस्य क्रमे सह्यमानानां समस्यानां समाधानाय विश्व समुदायस्य ध्यानाकर्षणं विधातुम् इजिप्ट भ्रमणं सफलं सम्भूतमस्तीति निश्चिनोति। इजिप्ट देशस्य कायरो नगरे सम्पन्ने वर्ल्ड अर्बन फोरम नामाख्य कार्यक्रमे सहभागी भूत्वा ह्यः स्वदेशस्य प्रत्यागमनस्य क्रमे त्रिभुवनान्तर्राष्ट्रिय विमानस्थले सञ्चारकर्मिभिः सह भाषमाणः मन्त्री सिंह भ्रमणम् उपलब्धिमूलकं सम्पन्नमस्तीति न्यश्चिनोत्। उपप्रधानमन्त्री सिंह कायरो नगरे सम्पन्ने सम्मेलने नेपालेन नगरीकरणस्य क्षेत्रे अधिगताम् उपलब्धिम् प्रगतिम् सह्यमानां समस्यां च प्रति विश्वस्य ध्यानाकर्षणं विधातुम् सफलता अधिगता स्थिति असूचयत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ कथयति भाषायाः लोपे सति संस्कृतेः लोपस्य सम्भावना भवति त्यतः भाषायाः संस्कृतेश्च संरक्षणाय सर्वैः प्रवर्तनीयम्। तमो विद्यार्थी संघटनस्य ह्य दमौली स्थाने प्रारब्धम् द्वादश महाधिवेशनम् उद्घाटयन् मन्त्री गुरूङ गृहादेव स्वस्य भाषायां वदनस्य संस्कृतेः विकासे विहिते सति भाषायाः संरक्षणाय योगदानं भवतीति भाषमाण सन्तत्या सह पितृभ्याम् मातृभाषायामेव व्यवहारो विधेय इति बलं प्रादात्। तदवसरे सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ समासां जातजातीनां भाषाणां च संरक्षणाय सर्वकारः प्रतिबद्धोऽस्तीति असूचयत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः स्वास्थ्य सुरक्षण कोषं व्यवस्थितं विधातुं सर्वकारः प्रयासरतो वर्तते इति सूचयति। पोखरा महानगरपालिकायाः 17 क्षेत्रस्य सीताको पाइला स्थानवर्तिनी पोखरा वृद्धाश्रमे स्थापितं पोखरा जेरियास्ट्रिक स्वास्थ्यकक्षम् इह उद्घाटयन् स्वास्थ्यमन्त्री पौडेलः स्वास्थ्य सुरक्षण कोषस्य कृते स्रोतसः सुनिश्चयनं कृत्वा तस्य व्यवस्थित हस्तकरणस्य प्रभावकारी सम्पादनस्य च योजनायाम् सर्वकारोऽस्तीति अज्ञापयत्। स्वास्थ्य सुरक्षण कोषात् प्राप्तायाः सेवायाः गुणस्तरीय सम्पादनेन सह सहजीकरणस्य च आवश्यकता अस्तीति भाषमाणः मन्त्री पौडेलः श्रोतसः सुनिश्चयनस्य कृते आयानुसारेण सुरक्षण कोषे योगदानम् इत्यादि विषयाः अग्रे वर्धनीयाः इति उदैरयत्। ह्य एव स्वास्थ्य मन्त्री पौडेलः तनहु जनपदस्य शुक्लागण्डकी नगरपालिकायाः पञ्चमवडा क्षेत्रस्य बेल्चौतरावर्तिनः जीपी कोइराला श्वास प्रश्वासोपचार केन्द्रस्य निरीक्षणं विदधानः स्वास्थ्योपकरणानां क्रयणाय मन्त्रालयेन प्राथमिकता प्रदास्यते इति समाश्वासयत्। विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया भाषते समावेशी सिद्धान्तम् आधृत्य समानुपातिक निर्वाचन क्षेत्राणां सम्पादनत्वेन संविधानस्य संशोधनं करिष्यते। वीरगंज नगरे जितपुर गोशालायाः अष्टादशोत्तर शततम वार्षिकोत्सवस्य अवसरे साधारण सभायाः उद्घाटन कार्यक्रमे च विधिमन्त्री चौरसिया लोकतान्त्रिक संविधानस्य अभ्यन्तरे स्थित्वा समेषां वर्ग समुदाय धर्म जातीनाम् अधिकारान् अतिरिक्तं सुदृढान् विधातुं संलग्नोऽस्तीति अगदत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमलदाहाल प्रचण्ड प्रत्यक्ष निर्वाचित राष्ट्रपतीय व्यवस्थाया कृते मेची महाकाली अभियानं संचालयिष्यते इति सूचयति। मकवानपुर जनपदस्य थाहा नगरपालिकायां ह्य आयोजितं वाइसेल संघटनस्य द्वितीय नगर सम्मेलनं सम्बोधयन् अध्यक्ष प्रचण्ड प्रत्यक्ष निर्वाचित राष्ट्रपतितः पञ्चवर्षाणि स्थिर सर्वकारे संचालिते सति अस्थिरतायाः सम्भावना न भविष्यति इति भाषमाणः व्यवस्थायाः परिवर्तनस्य प्रारम्भणादेव आत्मभि विषयोऽयम् उत्थाप्यमानोऽस्तीति अवोचत। तदवसरे अध्यक्ष दाहालः थानकोट चितलाङ चन्द्रागिरी मार्गखण्डस्य गणेशमान राजमार्गस्य च स्तरोन्नत्या सह कृष्ण वज्रीकरणस्य कार्याय फोदग्राम वसति संरक्षणस्य च कार्यक्रमाय च सहयोगार्थं प्रयतिष्यते इति प्रतिबद्धतां व्यक्तवान्। किरात धर्मावलम्बिनां महागुरोः फाल्गुनन्दस्य चत्वारिंशोत्तरैकशततमी जन्मजयन्ती अद्य विविधैः कार्यक्रमैः सह समायोज्यमानास्ति। किरात भाषा लिपि संस्कार संस्कृतिनां समाजस्य च सुधाराय महागुरो फाल्गुनन्दस्य महत्वपूर्णं योगदानं वर्तते। समाजस्य सुधाराय फाल्गुनन्देन नीति निर्माणं च विहितम् आसीत्। एतदर्थं फाल्गुनन्देन अष्टाशीत्युत्तरैकोनविंशतितमे विक्रमवर्षे सत्यधर्म मुचुलका नाम्नि समाजनीति प्रकाशिता आसीत्। एतदवसरे राजनीतिक नेतृभिः शुभकामना सन्देशाश्च प्रदत्ताः वर्तन्ते। निर्धारितानुसारेणैव विमानयात्रा शुल्कं ग्रहीतुं विमानयात्रा प्रपत्रस्य उपलब्धतां सहजां सुलभां च विधातुं च सम्बद्ध निकायाः सहमताः वर्तन्ते। विमानयात्रा शुल्कस्य नियन्त्रणाय नेपाल नागरिक उड्डयन प्राधिकरणस्य सम्बद्ध पक्षै सह ह्य विमर्शनस्य पश्चात् विषयस्य अस्य क्रियान्वयनाय पञ्चसूत्रीय सहमति धृतास्ति इति समाचारः।